एवं सतता युक्तये भक्तस्त्वं पर्युपासते ये च प्यक्षारमव्यक्तं तेषं के योगवीताम मय्यवेशो मनो येमं नित्ययुक्ता उपासते श्रद्धया परयोपेतस्ते मे युक्ततमो मता यत्वक्षारमनिर्देशम् अव्यक्तं पर्युपासते सर्वत्रागमचिन्त्यं च कूतस्थम् अचलं ध्रुवं संयमिन्द्रियाग्रामं सर्वत्र समबुधय ये प्राप्नुवन्ति मामेव सर्वभूतहिते रतः